इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। लोकसभा निर्वाचनस्य चतुर्थ चरणस्य मतदानार्थं सर्वाः सज्जताः अद्य सम्पादिताः। नवराज्याणां एक केन्द्र शासित प्रदेशस्य च 96 लोकसभासनेषु अद्य मतदानानि भविष्यन्ति। एतेषु आन्ध्रप्रदेशस्य 25, तेलंगानायाः 17, उत्तरप्रदेशस्य 13, महाराष्ट्रस्य 11, मध्यप्रदेश पश्चिमबंगालयोः प्रत्येकम् 8, बिहारस्य 5, झारखण्ड ओडिशा राज्ययोः प्रत्येकं 4, सहैव जम्मूकश्मीरस्य 1 आसनं वर्तते। लोकसभा निर्वाचनस्य चतुर्थ चरणाय आहत्य 17,700 प्रत्याशिनः नैर्वाचनिक समराङ्गणे सन्ति। मतदानं प्रातः 7 समारभ्य सायं 6 यावत् प्रचलिष्यति। आयोगेन उक्तं यत् तेलंगाना राज्यस्य 17 संसदीय क्षेत्रेषु कतिपयेषु विधानसभा क्षेत्रेषु मतदातृणां सहभागितां संवर्धयितुं मतदानस्य समयः वर्धितः अस्ति। 17.70 कोटितोप्यधिकाः मतदातारः, येषु 8.790 कोटि यावत् पुरुषाः, 8.370 कोटि यावत् महिला मतदातारः च सन्ति। ते अस्मिन् चरणे नैर्वाचनिक अनुष्ठाने सम्मिलिताः भविष्यन्ति। दक्षिण गाजानगरे आक्रमण विस्तारस्य सज्जतां कुर्वन्तः इजरायली सैनिकाः रफा नगरे नवीन निष्कासनादेशः प्रदत्तवन्तः, येन अन्ताराष्ट्रिय समूहानां प्रतिक्रियाः उत्पन्नाः। इजरायल सैन्येन शनिवासरे मध्य रफा नगरस्य अन्येषु च क्षेत्रेषु जनान् निष्कासयितुम् आदेशः प्रदत्तः। इतः पूर्वं पूर्वी रफा नगरस्य नागरिकान् नगरात् निर्गन्तुं सूचना ख्यापिता आसीत्, यत्र 10,00,000 जनाः आश्रयं प्राप्नुवन्ति। सैन्येन उक्तं यत् अधुना यावत् प्रायः 3,00,000 यावत् जनाः पलायनं कृतवन्तः। भारतीयान्तरिक्ष अनुसन्धान संघटनेन एडिटिव विनिर्माण प्रविधि माध्यमेन नूतनस्य तरल प्रक्षेप्यास्त्राभियन्त्रस्य साफल्येन परीक्षणं विहितम्। परीक्षणमिदं मे मासस्य 9 दिनांके तमिलनाडोः महेन्द्रगिर्याः इसरो प्रोपल्सन कॉम्प्लेक्स स्थानके समभवत्। नेपालदेशस्य दिग्गजेन पर्वतारोहिणा कामी रीता शेर्पा इत्यनेन ह्यः माउंट एवरेस्ट इत्याख्ये पर्वते सर्वाधिकं वारम् आरोहणस्य स्वीयाभिलेखं भंग्य कीर्तिमत् विरचितम्। तेन 39वें वारं विश्वस्य सर्वोच्च शिखरे आरोहणं कृतम्। नेपालस्य पर्यटन नागरिक विमानन मन्त्रालयस्य पर्यटन विभागस्य निदेशकस्य राकेश गुरुंग इत्यस्य अनुसारं 54-वर्षीयः अयं दिग्गजः पर्वतारोही स्थानीय समयानुसारं प्रातः 25:07 49.8 परिमितं शिखरं सम्प्राप्तवान्। आईपीएल क्रिकेट प्रतिस्पर्धायां ह्यः क्रीडितायां प्रतिस्पर्धायां बेंगलुरुनगरस्य एम चिन्नास्वामी क्रीडांगणे रॉयल चैलेंजर्स बेंगलुरुदलेन दिल्ली कैपिटल्स दलं 47 धावनांकैः पराजितम्। अध्यात्मके द्वन्द्वे गुजरात टाइटन्स कोलकाता नाइट राइडर्स दलयोः मध्ये क्रीडा भविष्यति। इति वार्ताः।